सर्वेभ्यो नमः। गतवर्गे वयं क्रियापदस्य अभ्यासं कृतवन्तः, तत्र आत्मनेपदी धातूनां रूपाणि दृष्टवन्तः, नवरूपाणि दृष्टवन्तः, अपि करपद
न श्रूयते महोदय।
हरि ओं महोदय, अहं न शृणोमि। हरि ओं, भवन्तः सन्ति वा?
आम् आम् महोदय,
अहं चिन्तयामि, अहं किमपि न सन्ति।
नरेश
नमस्ते महोदय।
नमस्ते, नरेशः अस्मि।
He is not online right now, he dropped out, there must be some technical difficulties.
रेकॉर्डिंग है, स्टार्ट कर रहे हैं।
हाँ, बितानी आगतवान है, एंटीन का आगतवान।
महोदय आगतवान।
हाँ।
नमस्ते महोदय।
ना तत्से वनी नाश्विये थे बितानी माफी।
सर्वेभ्यो नमः। सर्वे सन्ति वा? इदानीं श्रूयते वा? क्षम्यतां, नमस्कारः वंशीसुधा भगिनी, नमस्कारः। अत्र वर्षः भवति इति कृत्वा अत्र विद्युत् किमपि कारणतः तत्र इण्टर्नेट् कनेक्षन् इति भग्नः जातः, किन्तु इदानीं समीचीनम् इति मन्ये। अस्तु, क्षम्यतां। हा अस्तु, हा तत् अत्र
एकघण्टा अनन्तरम् अहं गमिष्यामि महोदय, किञ्चित्
अस्तु अस्तु अस्तु, चिन्ता मास्तु भगिनि। अस्तु, हा अत्र मधुसूदन महोदय नमस्कारः, नरेश महोदय नमस्कारः,
नमस्कारः।
हा अस्तु, गतवर्गे वयं क्रियापदस्य लट्लकाररूपस्य अभ्यासं कृतवन्तः आत्मनेपदी धातूनाम्। अद्य अपि क्रियापदस्य एव विषयः भवति, किन्तु लोट् लकारः इति विषयः भवति। प्रथमतया परस्मैपदी धातूनां लोट् लकारस्य परिचयः भवति, तदनन्तरम् अभ्यासः अपि भवति। किन्तु प्रथमतया गृहपाठः आसीत्, तं कृत्वा अग्रे गच्छामः। अस्तु, गृहपाठः आसीत् तत् स्वरूपमहोदयस्य करपत्रं गतवर्गे वयं पूर्णतया कृतवन्तः। तद् दृष्ट्वा पञ्चवाक्यानि लिखन्तु इति। हा, कोऽपि एकं वाक्यं वदति वा? गीताञ्जलि भगिनि।
आं महोदय।
अस्तु।
एषः बन्धोः वियोगेन छिद्यते, एतौ बन्धुभ्यां वियोगेन छिद्येते, एते बन्धुभ्यः वियोगेन छिद्यन्ते।
अस्तु,
त्वं बन्धोः वियोगेन छिद्यसे, युवां बन्धोः युवां वियोगेन छिद्येथे, वयं बन्धोः वियोगेन छिद्यद्वे।
वयं किमस्ति?
नो, यूयं यूयं बन्धोः वियोगेन छिद्यद्वे।
अस्तु, हा, इदानीम्
अहं बन्धोः वियोगेन खिद्ये, आवां बन्धोः वियोगेन खिद्यावहे, वयं बन्धोः वियोगेन खिद्यामहे।
हा, समीचीनमस्ति भगिनि। हा, समीचीनं, धन्यवादः। अस्तु, शोभा भगिनी वदति वा?
आं महोदय। माता पाकशालायाम् आस्ते, मातरौ पाकशालायाम् आसाते,
मातरौ आस्ते इति अस्ति। ओ, आस्ते किञ्चित्, अस्तु अस्तु अस्तु, आस्ते इति द्विवचने आस् किम् अस्ति? तद्
आसाते अस्ति महोदय।
आसाते अस्ति, अस्तु भगिनि। हा, तत् किञ्चित् विशेषरूपम् अस्ति खलु?
तदर्थं कृतवती।
अस्तु अस्तु,
मातरौ पाकशालायाम् आसते, त्वं पाकशालायाम् आसे, युवां पाकशालायाम् असाते आसाते, यूयं पाकशालायाम् आध्वे।
अस्तु,
अहं पाकशालायाम् आसे, आवां पाकशालायाम् आस्वहे, वयं पाकशालायाम् आस्महे।
आस्महे, अस्तु, धन्यवादः भगिनि। हा, अग्रे उषा भगिनी वदति वा?
आं महोदय।
हा,
पिता सिंहः दृष्ट्वा पलायते, पितरौ सिंहः दृष्ट्वा पलायेते, पितरः सिंहः दृष्ट्वा पलायन्ते,
सिंहं
दृष्ट्वा पलायन्ते, त्वं सिंहं दृष्ट्वा पलायसे, युवां सिंहं दृष्ट्वा पलायेथे, यूयं सिंहं दृष्ट्वा पलायद्वे, अहं सिंहं दृष्ट्वा पलाये, आवां सिंहं दृष्ट्वा पलायावहे, वयं सिंहं दृष्ट्वा पलायामहे।
समीचीनमस्ति भगिनि, समीचीनं भगिनि, धन्यवादः। भानुचितनी महोदय वदति वा?
महोदय, अनन्तरं वदामि।
अस्तु 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 महोदय। वंशीसुध भगिनी वदति वा?
आं महोदय। सहते इति क्रियापदं, महान् कष्टान् सहते, महान्तौ सहेते। अत्र भवान् इत्युक्ते तकारान्तशब्दः भिन्नः अस्ति महोदय, महान्तौ इति अस्ति, महान्तौ सहेते, महान्तः सहन्ते, त्वं सहसे युवां सहेथे यूयं सहध्वे अहं सहे आवां सहावहे वयं सहामहे.
हा समीचीनमस्ति भगिनि.
महोदय, तकारान्तशब्द भवान् मरुत् सर्वत् सम्यक् समानमेव अस्ति, परन्तु महान् शब्दः भिन्नः अस्ति.
हा तत्र एतादृशविशेषः विशेषानि नामपदानि सन्ति भगिनि. तत्र किमपि हा तत्र नकारान्त तकारान्त अस्ति, किन्तु विशेषम् अस्ति, साधारणतकारान्त अस्ति, विशेषतकारान्ते अपि अस्ति, महान् इति प्रायशः तादृशम् अस्ति. किन्तु समीचीनम् अस्ति भगिनि, धन्यवादः. हा महान् इति तस्य द्विवचने किम् आसीत्?
महान्तौ महोदय.
हा भवान् भवन्तौ इति अस्ति,
भवन्तौ अस्ति परन्तु
महान्तौ इति अस्ति. अस्तु, हा समीचीनम् अस्ति भगिनि. हा तत्र हा मरुत् या अस्तु तत्र. हा महान् महत् इति शब्दः. आम् द्वितीयविभक्तौ अपि किञ्चित् भवन्तम् इति अस्ति, किन्तु महान् महत् इति महान्तम् इति अस्ति. भवन्तं भवन्तौ भवतः इति अस्ति, किन्तु महान्तम् इति. हा तत्रापि अस्तु भगिनि. हा किन्तु समीचीनमेव, विशेषरूपम् अस्ति तत् शब्दमञ्जरी दृष्ट्वा अहं वदामि. हा तत् हा तत् विशेषरूपमेव अस्ति. समीचीनं भगिनि. हा नरेश् महोदय अग्रे वदति वा?
आं महोदय. सः संस्कृतोन्नति कामयते.
हा
तौ संस्कृतोन्नति कामयेते.
उन्नतिम् इति हा तत्र कर्मपदम् अस्ति महोदय.
आम् संस्कृतोन्नतिं.
हा
ते संस्कृतोन्नतिं कामयन्ते. त्वं संस्कृतोन्नतिं कामयसि. युवां संस्कृतोन्नतिं कामयेथे. यूयं संस्कृतोन्नतिं कामयध्वे. अहं संस्कृतोन्नतिं कामये. आवां संस्कृतोन्नतिं कामयां वहे. वयं संस्कृतोन्नतिं कामयामहे.
हा समीचीनमस्ति महोदय. हा धन्यवादः.
महोदय, अहं कामे या कामये महोदय?
कामये इति अस्ति. तत्र कामयते इति अस्ति भगिनि, अतः सहते इति स्थाने सहे इति भवति खलु. तत्र सः ते त्यजतु, तदनन्तरं सः इति अस्ति, तस्य परिवर्तनं सहे इति भवति. तत्र कामयते इति अस्ति, अतः ते त्यजामश्चेत् अपि कामय इति भवति.
अहं कामे इति पदं पश्यामि महोदय. अत्र अहमेव चिन्तयामि कामये या कामे इति द्वयोः.
अस्तु भगिनि, किन्तु कामये तु समीचीनमस्ति खलु.
कामे समीचीनं, कामे अपि अस्ति महोदय. कामे अपि
अस्तु. अस्तु सत्यं भगिनि, किन्तु यद् भवती उक्तवती तत्तु समीचीनमेव, किन्तु किन्तु अभ्यासः कस्य अभ्यासः भवतु इति इत्युक्ते, प्रथमतया साधारणरूपं मनसि स्थापयामः खलु. साधारणरूपं मनसि अस्ति चेत् प्रायशः तद् भवति इति चिन्तयित्वा ऊहा कर्तुं शक्नुमः. किन्तु विशेष रूपमेव अस्ति चेत् किं भवति, तद् सर्वत्र तादृशं न भवति इति कृत्वा.
क्षम्यता महोदय, धन्यवादः.
सत्यं वा? सत्यं वा?
आम् महोदय, धन्यवादः.
अतः कामये कामे अपि अस्ति चेत् समीचीनं, किन्तु कामये साधारणरूपं तद् वक्तुं शक्नुमः. अस्तु भगिनि, धन्यवादः. अस्तु मधुसूदन महोदय वदति वा?
महोदय प्रयत्नं करोमि. न लिखितवान्. सः संस्कृतं सम्भाषणं वक्तुं मोदते.
महोदय तत्र यत् वाक्यानि करपत्रे यानि वाक्यानि करपत्रे आसन् तानि दृष्ट्वा एकं चित्वा वदतु. तत्र ईमेल् द्वारा गतवर्गे एतदेव वयं कृतवन्तः स्वरूप महोदयस्य करपत्रम्
अत्र अत्र करपत्रे प्रथमः वर्तते वर्तेते वर्तन्ते.
हा हा तत्र तत्र समी सत्यं सत्यं
एकनिमिषं महोदय.
अस्तु 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 अन्य कोऽपि वदति तदनन्तरं भवान् वदतु. अस्तु रघुपतिमहोदय वदति वा.
महोदय क्षम्यतां न कृतवान्.
अस्तु 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 महोदय चिन्ता मास्तु. अस्तु अस्तु महोदय मधुसूदन महोदय वदतु.
भक्तः देवं वन्दते देवं वन्दतौ
वन्देते वन्देते वन्देते
वन्देते भक्ताः देवं वन्दन्ते. त्वं देवं वन्दते युवां देवं वन्देते यूयं देवं वन्दत्वे अहं देवं वन्दे आवां देवं वन्दावहे वयं देवं वन्दावहे.
समीचीनम् समीचीनं महोदय. अस्तु धन्यवादः. बाणचितनी महोदय वदति वा इदानीं. अस्ति वा बाणचितनि महोदय. अस्तु अस्तु इदानीम् अग्रे गच्छामः. तत्र लट्लकारस्य रूपं सर्वे मनसि स्थापितवन्तः इति मन्ये. इदानीम् अग्रे गच्छामः. तत्र गीतासोपाने अग्रिमपुटे पेज् 50 तत्र पश्यामः. तत्र मधुसूदनमहोदय अपि शोभा भगिनी तत्र पठन्ति वा.
आम् महोदय. एतत् सम्भाषणं उच्चैः पठत आगच्छत च
अवगच्छत
अवगच्छत अवगच्छत च पिता वत्स अत्र आगच्छ.
मधुसूदन महोदय भवान् एव पुत्रः तत्र.
किं
गीतापुस्तकम् आनय. अत्र उपविश. प्रथमं कृष्णं स्मर. प्रार्थनां कुरु. ध्यानश्लोकं पठ. उच्चैः वद.
कं श्लोकं पठ पठामि.
प्रथमं श्लोकं पठ.
भवान् भवती कृपया एतस्य अर्थं विवृणेन
विवृणोमि. श्रद्धया शृणु. अत्र पश्य.
कुत्र पश्यामि.
पुस्तकस्य अष्टमं पृष्ठं वीक्षस्व.
अग्रे किं करवाणि.
एतं श्लोकं पञ्चवारं पठ.
भवती कृपया पाठयतु. अनन्तरम् अहं
तथैव कुरुष्व. आरभावहे सारि आरभावहे.
अस्तु
धन्यवादः. तत्र
महोदय कुत्र गीतापुस्तके
गीतापुस्तके पेज् 50 लोट् लकारः. अत्र विषयः कः इत्युक्ते लोट् लकारः, एषः एव अद्यतनविषयः अस्ति. क्रियापदस्य एतावत् वयं केवलं लट् लकारः वर्तमानकालरूपम् एव दृष्टवन्तः, किन्तु क्रियापदस्य बहूनि रूपाणि सन्ति. लकारः इति वदामः, तत्र लट् लकारः इति अस्ति, अद्य लोट् लकारः इति तस्य परिचयः भवति. तदनन्तरं वयं लङ् लकारः इति भूतकालरूपस्य अपि तस्य अभ्यासः अपि अग्रे गत्वा भविष्यति. किन्तु अत्र लोट् लकारः तु वयं बहुत्र दृष्टवन्तः, यथा शोभा भगिनी पठितवती, एतत् सम्भाषणम् उच्चैः पठत अवगच्छत च. तत्र अवगच्छत पठत इति यत् अस्ति रक्तवर्णे यत् अस्ति, तदपि लोट् लकाररूपम् एव अस्ति अवगच्छत इति. अग्रे दृष्ट्वा पश्यामः, तत्र सम्भाषणे यानि पदानि रक्तवर्णे सन्ति तानि सर्वाणि लोट् लकाररूपाणि. तत्र आगच्छ, आनय, अस्तु, उपविश इति एतादृशानि पदानि. तत्र पङ्क्तिशः पश्यामः तत्र किं किम् अस्ति इति एकवारं सम्भाषणस्य अवगमनं भवतु, तदनन्तरं लोट् लकारस्य रूपं कथं भवति इति पश्यामः. हा, तत्र पिता वदति वत्स अत्र आगच्छ. अत्र आगच्छ, सर्वे अवगच्छन्ति खलु. हा, पुत्र वदति किं. हा, पिता वदति गीतापुस्तकम् आनय. पुत्र वदति अस्तु. तत्र अस्तु अपि रक्तवर्णे अस्ति. हा, अस्तु इति अपि लोट् लकाररूपम् इति. हा, तदनन्तरं पिता भवति अत्र उपविश. तत्र गीतापुस्तकस्य पठनस्य पूर्वं कार्यम् अस्ति. किं कार्यं? प्रथमं कृष्णं स्मर, तदनन्तरं प्रार्थनां कुरु, तदनन्तरं ध्यानश्लोकं पठ, तदनन्तरम् उच्चैः वद. तत्र पुत्रः पृच्छति कं श्लोकं पठानि, विच् श्लोक शुड् ऐ रीड्. पिता वदति प्रथमं श्लोकं पठ. पुत्र वदति भवान् कृपया एतस्य अर्थं विवृणोतु. विवृणोतु इत्युक्ते किम्?
एक्स्प्लेन्.
हा, विवृणोतु, विवरणं कुरु. विवृणोमि, श्रद्धया शृणु. अत्र पश्य, कुत्र पश्यानि? पुस्तकस्य अष्टमं पृष्ठं वीक्षस्व. हा, तत्र पश्य, शृणु, विवृणोतु, पठानि इति आसीत्, किन्तु इदानीं स्व इति आगच्छति, वीक्षस्व. तत्र आगच्छ, तत्र आगच्छति इति अस्ति, आगच्छ भवति, किन्तु वीक्षस्व लट् लकाररूपं किं भवति? वीक्षस्व इति कोऽपि जानाति वा? हा, आत्मनेपदि धातुः अस्ति तत्र वीक्षस्व. तदनन्तरं करवाणि, अग्रे किं करवाणि? वाट् शुड् ऐ डू अहेड् आफ्टर्? एतं श्लोकं पञ्चवारं पठ. भवान् कृपया पाठयतु. अनन्तरम् अहं प्रायतै. तत्र प्रायतै अपि प्रायतते. प्रायते, प्रायतते प्रायशः अस्ति. हा, तदपि आत्मनिपदि धातुः एव अस्ति. तदनन्तरं तथैव कुरुष्व आरम्भावहै इति अस्ति. तद् आरम्भावहै अपि आत्मनेपदि धातुः अस्ति. तदनन्तरम् अस्तु इति अस्ति. हा, तत्र सम्भाषणस्य अवगमनम् अस्ति वा? सर्वे अवगच्छन्ति वा? कोऽपि प्रश्नः अस्ति वा सम्भाषणविषये?
महोदय, तत्र आरम्भ अस्ति अथवा आरभ अस्ति महोदय?
आरभावहै इति प्रायशः एव
समानपदानि
इति. हा, आरम्भं कुर्मः इति अर्थे अस्ति. सत्यं भगिनि. हा, हा, तत्र प्रयते, तदपि आत्मनिपदि धातुः अस्ति महोदय.
किं
महोदय ट्रै ट्रै इति प्रयत्नं 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 करोमि हा प्रयत्नं करोमि इति हा वीक्ष इत्युक्ते पश्यतु इति हा
महोदय करवाणि करवाणि इति पदं किं महोदय तत्र
लोट्लकाररूपम् अस्ति उत्तमपदम् उत्तमपुरुषे एकवचनं
करोति इति पदस्य महोदय करोति करोति इति परस्मैपदी धातु अथवा आत्मनेपदी धातु अस्ति कुरुते
इति परस्मैपदी धातु अस्ति तत्र करवाणि अपि परस्मै धातोः लोट्लकाररूपम् उत्तमपुरुषे एकवचनं
धन्यवादः
आगच्छति भगिनि एतावत् सोपानेन गच्छामः सोपानेन गच्छामः हा सत्यं सत्यं हा सत्यं हा अस्तु इदानीं
महोदय अनन्तरम् अहं प्रयतै अनन्तरम् अहं यतै इति सम्यक् वाक्यं महोदय
प्रायशः यत्नं करोमि प्रयत्नं करोमि प्रायशः सत्यं भगिनि अस्तु इदानीं किं कुर्मः प्रथमतया वयं अग्रिमपुटे यत् कोष्टकमस्ति तद् एकवारं पश्यामः तदेव साधारणरूपम् अस्ति लोट्लकारस्य पठति इति धातोः पट् धातोः लोट्लकाररूपं तत्र उषा भगिनी पठति वा अग्रिमपुटे 52 पेज् 52 तत्र पठतु इति अस्ति केवलं क्रियापदं पठतु
ओके आं महोदय पठतु पठतां पठन्तु पठ पठथं पठत पठानि पठाव पठाम
हा इति तत्र लोट्लकारः कदा तस्य प्रयोगः भवति इत्युक्ते रिक्वेस्ट् अथवा आर्डर् इति वदामः एतत् करोतु इति वयं वदामः अथवा प्रार्थनां कुर्मः तस्मिन् सन्दर्भे लोट्लकारस्य उपयोगः भवति केवलं विवरणं कुर्मः अस्तु अस्तु सः गच्छति किन्तु इदानीं वयम् इच्छामः सः अत्र न स्थातव्यं सः गच्छतु इति वक्तुम् इच्छामः तदा वयं वदामः गच्छतु भवान् गच्छतु इति तादृश प्रार्थना अथवा यत् वयम् आदेशः इति वदामः आर्डर् अथवा प्रार्थना रिक्वेस्ट् इति तस्मिन् सन्दर्भे लोट्लकारस्य प्रयोगः भवति तत्र साधारणरूपं प्रथमतया पश्यामः तत्र पठतु इति अस्ति इदानीं गीताञ्जलि भगिनी तत्र गच्छ गम् धातोः रूपं वदति वा गच्छतु
अस्तु आं महोदय गच्छतु गच्छतां गच्छन्तु गच्छ गच्छतं गच्छत गच्छानि गच्छाव गच्छाम
हा इति अस्ति अस्तु अग्रे केवलं प्रथमवारं सर्वे एकवारं वदन्तु किमपि क्रियापदं पठतु इति आसीत् तदनन्तरं किं कुर्मः आनयतु आगच्छतु इति कुर्मः हा अस्तु वंशीसुधा भगिनि आगच्छतु इति
पदं किं महोदय
आगच्छतु आगच्छतु इति
आगच्छतु आगच्छताम् आगच्छन्तु आगच्छ आगच्छतम् आगच्छत आगच्छानि आगच्छाव आगच्छाम
हा इति अस्तु तदनन्तरं नरेश महोदय पश्यतु
पश्यतु पश्यतु पश्यताम् पश्यन्तु पश्य पश्यतं पश्यत पश्यानि पश्याव पश्याम
हा इति अस्तु. इदानीं मधुसूदन महोदय तत्र वदतु.
वदतु वदतां वदन्तु वद वदतं वदत वदानि वदाव वदाम
हा इति समीचीनम्. इदानीं अन्यत् किं कः न उक्तवान् रघुपतिमहोदय नयतु
नयतु नयतु नयतां नयन्तु नय नयतं नय नयत नयानि नयाव नयाम
समीचीनं महोदय. हा इदानीं उषा भगिनी उक्तवती खलु शोभा भगिनी उपविशतु
उपविशतु उपविशताम् उपविशन्तु उपविश उपविशतम् उपविशत उपविशानि उपविशाव उपविशाम
हा इति समीचीनं भगिनी. इदानीं भानुचैतन्य महोदय स्मरतु
स्मरतु स्मरतां स्मरन्तु स्मर स्मरतं स्मरत स्मराणि स्मराव स्मराम
हा इति स्मराणि हा स्मराणि स्मराव स्मराम इति समीचीनं महोदय. अस्तु सर्वे उक्तवन्तः वा? वंशीसुधा भगिनी उक्तवती वा?
आं महोदय.
अस्तु अस्तु सर्वे उक्तवन्तः. अस्तु हा इदानीं रूपम् एतत् परस्मैपदी धातूनां लट् लोट्लकाररूपं साधारणरूपम् इति अस्ति. हा इदानीं तत्र हा एतत् यत् अत्र अस्ति तद् एकवारं पश्यामः. अभ्यासः प्रथम अभ्यासः हा तत्र पेज् 51 मध्ये अस्तु. तत्र हा रघुपतिमहोदय तत्र प्रथमं करोति वा? तत्र पेज् 51 मध्ये
एकनिमिषं महोदय. फिफ्टि वन् मध्ये अस्तु अभ्यासः. यतोदाहरणं वाक्यानि लिखत. प्रथमं भवान् सूचयतु भवान् सूचयतु भवती गायतु. ओके भवान्
प्रेषय एतत् कुर्मः. भवान् सूचयतु इति अस्ति तस्य नवरूपाणि प्रयत्नं करोति वा?
हा महोदय. सूचयतु सूचयतां सूचयन्तु सूचय सूचय सूचयत सारी सूचयत सूचयतं
सूचय
सूचय सूचय सूचय सूचय सूचयतं सूचय सूचयत सूचयानि सूचयानि सूचयाव सूचयाम
हा इति अस्ति. हा समीचीनं महोदय. इदानीं किं कुर्मः तत्र भवान् इति अपि स्थापयामः इदानीं.
अस्तु भवान् सूचयतु भवान् सूचयतु भवन्तः
अग्रिमपुटे अग्रिमपुटे दृष्ट्वा वदतु महोदय समीचीनं भवति.
भवान् सूचयतु अदृष्टो वदामि किञ्चित् अभ्यासः भवति.
अस्तु 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 महोदय अस्तु.
भवान् सूचयतु भवन्तौ सूचयतां भवान् भवान् सूचयतु भवन्तः सूचयन्तु इति त्वं त्वं सूचयत
सूचय त्वं सूचय
सारी त्वं सूचय युवां युवां सूचयतं यूयं सूचयत अहं सूचयानि आवाम् आवां सूचयाव वयं सूचयाम
हा समीचीनम्. अस्तु इदानीं नरेश महोदय अग्रिमं करोति वा?
भवती गायतु भवत्याः
प्रथमं प्रथमम् एकवारं महोदय सरलार्थं गायतु इति तस्य नवरूपाणि एकवारं वदामः, तदनन्तरं कर्तृपदं स्थापयामः.
गायतु, गायतां, गायन्तु, गाय, गायतं, गायत, गायानि, गायाव, गायाम. भवति पठतु,
भवती गायतु, भवती गायतु,
भवती गायतु, भवत्यौ गायतां, भवत्यः गायन्तु, त्वं गाय, युवां गायतं, यूयं गायत, अहं गायानि, आवां गायाव, वयं गायाम.
हा इति समीचीनं महोदय. अस्तु, धन्यवादः. अस्तु, इदानीं वंशीसुधा भगिनी अग्रिमं करोति वा?
आं महोदय. प्रेषयतु, प्रेषयतु, प्रेषयतां, प्रेषयन्तु, प्रेष, प्रेषतं, प्रेषत, प्रेष, प्रेषय.
तत्र भगिनी, भगिनी, मध्यमपुरुषे एकवचने किम् आसीत्?
प्रेषय महोदय.
हा प्रेषय,
प्रेषय, प्रेषयतं, प्रेषयत,
प्रेषयत,
प्रेषयत, क्षम्यता, प्रेषयत, प्रेषयानि, प्रेषयाव, प्रेषयाम, भवान्, भवान् प्रेषयतु, भवन्तौ प्रेषयतां, भवन्तः प्रेषयन्तु, त्वं प्रेषय, युवां प्रेषयतं, यूयं प्रेषयत, अहं प्रेषयानि, आवां प्रेषयाव, वयं प्रेषयाम.
हा समीचीनं भगिनि, धन्यवादः. उषा भगिनी अग्रे.
आं महोदय. चल, चलति, चलतु, चलतु, चलतां, चलन्तु, चल, चलतं, चलत, चलानि, चलाव, चलाम. भवती चलतु, भवत्यौ चलतां, भवत्यः चलन्तु, त्वं चल, युवां चलतं, यूयं चलत, अहं चलानि, आवां चलाव, वयं चलाम.
हा समीचीनं भगिनि, धन्यवादः. इदानीं मधुसूदन महोदय.
त्यजति, त्यजतु, त्यजतां, त्यजन्तु, त्यज, त्यजत, त्यजतं, त्यज, त्यजत, त्यजानि, त्यजानि, त्यजाव, त्यजाम. भवान् त्यजतु, भवन्तौ त्यजतां, भवन्तः त्यजन्तु, त्वं त्यज, युवां त्यजतं, यूयं त्यजत, अहं त्यजानि, आवां त्यजाव, आवां त्यजाव, वयं त्यजाम.
हा समीचीनम् अस्ति महोदय, धन्यवादः. शोभा भगिनि.
आं महोदय. मिलति, मिलतु, मिलतां, मिलन्तु, मिल, मिलतं, मिलत, मिलानि, मिलाव, मिलाम.
हा समीचीनं भगिनि. इदानीं
भवान्, भवान् मिलतु, भवन्तौ मिलतां, भवन्तः मिलन्तु, त्वं मिल, युवां मिलतं, यूयं मिलत, अहं मिलानि, आवां मिलाव, वयं मिलाम.
हा इति समीचीनम्. अग्रे गीताञ्जलि भगिनि.
आं महोदय. सञ्चरति, सञ्चरतु, सञ्चरतां, सञ्चरन्तु, सञ्चर, सञ्चरतं, सञ्चरत, सञ्चरानि, सञ्चराव, सञ्चराम. भवान् सञ्चरतु, भवन्तौ सञ्चरतां भवन्तः सञ्चरन्तु त्वं सञ्चर युवां सञ्चरतं यूयं सञ्चरत अहं सञ्चराणि आवां सञ्चराव वयं सञ्चराम.
हा समीचीनं भगिनि, धन्यवादः. सर्वे उक्तवन्तः वा अत्र अभ्यासं? भानुचेतन महोदय, क्षम्यतां महोदय, भवान् एव. सत्यं,
तिष्ठतु, तिष्ठतां, तिष्ठन्तु, तिष्ठ, तिष्ठतं, तिष्ठत, तिष्ठानि, तिष्ठानि, तिष्ठाव, तिष्ठाम. भवति तिष्ठतु, भवत्यौ तिष्ठतां, भवत्यः तिष्ठन्तु, त्वं तिष्ठ, युवां तिष्ठतं, यूयं तिष्ठत, अहं तिष्ठामि, आवां तिष्ठाव, वयं तिष्ठाम.
हा इति समीचीनम्, तिष्ठामः समीचीनम्. इदानीम् अग्रे नरेश महोदय.
आम् महोदय. प्रदर्शयति, प्रदर्शयतु, प्रदर्शयतां, प्रदर्शयन्तु, प्रदर्शय, प्रदर्शयतं, प्रदर्शयत, प्रदर्शयानि, प्रदर्शयाव, प्रदर्शयाम. भवान् भवान् प्रदर्शयतु, भवन्तौ प्रदर्शयतां, भवन्तः प्रदर्शयन्तु, त्वं प्रदर्शय, युवां प्रदर्शयतं, यूयं प्रदर्शयत, अहं प्रदर्शयानि, आवां प्रदर्शयाव, वयं प्रदर्शयाम इति.
हा समीचीनं महोदय. अग्रे रघुपति महोदय अग्रे.
एकनिमिषं महोदय. प्रदर्शय, ओके अस्तु. दण्डयति, दण्डयति, दण्डयतु, दण्डयतु, दण्डयतां, दण्डयन्, दण्डयन्तु, दण्डय, दण्डयतं, दण्डयत, दण्डयानि, दण्डयाव, दण्डयाम अस्ति. भवान् भवान् दण्ड, भवान् दण्डयतु, भवन्तौ दण्डयतां, भवन्तः दण्डयन्तु, त्वं दण्डय, युवां युवां दण्डय, दण्डयतं, यूयं दण्ड, यूयं दण्डयत, अहं दण्डयानि, आवां दण्डयाव, वयं दण्डयाम.
हा समीचीनं महोदय. अस्तु अग्रे उषा भगिनी अग्रे.
जानाति महोदय.
हा अस्तु करोतु भगिनि.
जानाति,
एकनिमिष एतत् वदामि. तत्र एतावत् वयं साधारणरूपं दृष्टवन्तः, किन्तु ज्ञादातुः जानाति इति तद् तत्र किञ्चित् रूपभेदः अस्ति, अतः सावधानतया शृणोतु. वदतु.
जानातु, जानीतां, जानन्तु, जानीहि, जानीतं, जानीत, जानानि, जानाव, जानाम
इति. एतद् सर्वम्, एतद् रूपं यदि आवश्यकं, यदि न जानन्ति कुत्र अस्ति इत्युक्ते सुलभमार्गमस्ति, अष्टाध्यायी.com गच्छन्तु. तत्र अष्टाध्यायी.com मध्ये धातु इति अस्ति, तत् तत्र क्लिक् करोतु. अपि ज्ञा धातुः तद् स्थापयतु. तत्र दशलकाराः सर्वाणि रूपाणि तत्र द्रष्टुं शक्नुमः. तत्र ज्ञा धातुः, तस्य जानातु इति लोट् लकाररूपम् आगच्छति तत्र. अस्तु, तत्र जानातु, तत्र आत्मनेपदी रूपमपि अस्ति, तद् अग्रे कुर्मः. किन्तु उषा भगिनी पुनरेकवारं केवलं क्रियापदस्य नवरूपाणि वदतु.
जानातु, जानीतां, जानन्तु, जानीहि, जानीतं, जानीत, जानानि, जानाव, जानाम.
हा इति समीचीनं भगिनि, धन्यवादः. हा अस्तु, अग्रे शोभा भगिनि.
आं महोदय. प्रक्षालयतु, प्रक्षालयतां, प्रक्षालयन्तु, प्रक्षालय, प्रक्षालयतं, प्रक्षालयत, प्रक्षालयानि, प्रक्षालयाव, प्रक्षालयाम. भवती प्रक्षालयतु, भवत्यौ प्रक्षालयतां, भवत्यः प्रक्षालयन्तु, त्वं प्रक्षालय, युवां प्रक्षालयतं, यूयं प्रक्षालयत, अहं प्रक्षालयामि, यानि, आवां प्रक्षालयाव, वयं प्रक्षालयाम.
हा इति समीचीनं भगिनि, अस्तु. हा इदानीम् एतत् अस्तु, तत्र प्रश्नः अस्ति वा प्रथम अभ्यासे?
न महोदय, महोदय अत्र लोट्लकारे उत्तमपुरुषे वाक्यानि विरल अस्ति.
हा सत्यं सत्यं, हा तत्र उत्तमपुरुषे
द्वितीय सारी मध्यमपुरुषे एव
तदेव साधारणतया पश्यामः. तत्र सम्भाषणे अपि समीचीनं समीचीन अंशः महोदय. तत्र सम्भाषणे पश्यामश्चेत् तत्र कं श्लोकं पठानि, कुत्र पश्यानि, अग्रे किं करवाणि इति. हा तत्र हा उत्तमपुरुष साधारणतया प्रश्नरूपे एव मया दृष्टं. हा यदि अहम् एतत् उदाहरणम् उक्तवान् पूर्वमपि, किन्तु हा वर्गात् अहं गन्तुम् इच्छामि, अतः अहं पृच्छामि
गुरु अथवा सेवक एव.
हा तादृश, हा तत्र अहम् इदानीं गच्छामि वा इति. अत्र प्रश्नः एव भवति अथवा
ओबिडियन्स् दृश्यते तदा एव.
सत्यं महोदय, सत्यं महोदय. तत्र उत्तमपुरुषस्य रूपाणि विरतया पश्यामः. प्रसिद्धलोट्लकारस्य रूपं वयं प्रायशः अग्रिमवर्गे तद् पश्यामः, किन्तु एकं तु इदानीमेव वदामि. तत्र देव्याः श्लोकम् अस्ति, भवानि त्वम् इति. तत्र भवानि इति तद् धातोः लोट्लकारम् उत्तमपुरुष एकवचनरूपम् अस्ति. किन्तु अन्यानि अपि अग्रिमवर्गे पश्यामः. अस्तु, इदानीं द्वितीयाभ्यासः.
लोट्लकार मध्ये लैक् पठतु पठतात् द्वे पदानि अस्ति न महोदय? पठतु पठतात् पठतां, पठन्तु, पठ पठतात् पठतं, पठत, पठानि, पठाव, पठाम.
कुत्र अस्ति भगिनी भवती?
पठतु पठतु अण्ड् देन् पठतात् द्वे
पठतात्. सत्यं सत्यं सत्यं, द्वे अपि समानम् अस्ति भगिनि, द्वे अपि समानम् अस्ति. सर्वत्र एकमेव रूपं न पश्यामः.
मध्यमपुरुषे अपि द्वे पदानि.
हा सत्यं सत्यम्, एकवचने खलु.
आं महोदय.
हा सत्यं सत्यं, हा तद् एतद् एषः अंशः अहम् अग्रिमवर्गे अपि वक्तुम् इच्छामि. तत्र अन्य क्रियपदम् अस्ति, तत्र अपि वयम् अहं वक्तुम् इच्छामि. तत्र मध्यमपुरुषे किं भवति, तत्र अन्ते दी इति दृश्यते अथवा हि इति दृश्यते. सर्वे प्रायशः श्रुतवन्तः पाहि माम् इति, त्राहि माम् इति. तत्र त्राहि इति तद् लोट्लकार मध्यमपुरुष एकवचनरूपम् अस्ति. देहि त्राहि पाहि तत्सर्वं लोट्लकारस्य मध्यमपुरुष एकवचनरूपम् अस्ति. अत्र पट इति अस्ति किन्तु तत्र देहि रूपभेदः अस्ति किन्तु देहि पाहि सर्वं मध्यमपुरुष एकवचन लोट्लकाररूपम् अस्ति.
महोदय अत्र प्रार्थनारूपेण अपि लोट्लकार युज्यते.
अस्तु सत्यं सत्यं. एतत् विधिलिङ्गे नास्ति, केवलं लोट्लकार प्रार्थना अथवा आज्ञा आदेशः. हा आदेशः व्याकरण आदेशः नास्ति, आदेशः इत्युक्ते आज्ञा आज्ञा इति. अस्तु इति अस्ति. अतः अग्रे अन्य कोऽपि प्रश्नः वा अथवा द्वितीय अभ्यासं कर्तुं शक्नुमः इति मन्ये. अस्तु तत्र गीताञ्जलि भगिनी द्वितीय अभ्यासः आरम्भं करोति वा?
करपत्रे याचकः भूपते
भुङ्क्ते
भुङ्क्ते इति दत्तं महोदय इति मम प्रश्नः. भुङ्क्ते सम्यक् वा भुङ्क्ते?
भुङ्क्ते इति मन्ये भगिनि. भुङ्क्ते भुङ्क्ते प्रायशः मुद्रणदोषः अस्ति. अस्तु मधुसूदन महोदय प्रश्नः अस्ति वा नास्ति वा? प्रश्नः नास्ति. अस्तु 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 भगिनि गीताञ्जलि भगिनि द्वितीयाभ्यासं करोतु भगिनि.
अस्तु अस्तु महोदय. यथोचितेन पदेन योजयत.
हा तत्र योजयत इति रूपं किम्?
योजयत इत्युक्ते मध्यमपुरुष बहुवचन लोट्लाकार.
हा समीचीनं भगिनि. अस्तु हा धन्यवादः. अस्तु हा इदानीम् अग्रे.
सन्मार्गम् अनुसरतु.
हा सन्मार्गम् अनुसरतु. इदानीं तत्र अनुसरतु इति तस्य द्विवचनरूपं सन्मार्गम्
अनुसरतु
केवलं द्विवचनम् अनुसर
ताम्
अनुसरताम्. अस्तु तावदेव भगिनि. अस्तु अग्रे नरेश महोदय अग्रिमम्.
आम् महोदय. सहयोगं ददातु.
हा तत्र ददातु अपि किञ्चित् विशेषरूपम् अस्ति. तत्र ददातु दत्तां ददतु इति अस्ति. तदनन्तरं मध्यमपुरुषे देहि दत्तं दत्त ददानि ददाव ददाम. हा उत्तमपुरुषे तु साधारणरूपम् अस्ति किन्तु मध्यमपुरुषे देहि इति अस्ति. अस्तु ददातु इति अत्र सहायं सहयोगं ददातु इति. अस्तु महोदय. अग्रे मधुसूदन महोदय अग्रिमम्. न तत्र योजनं करणीयं. तत्र सन्मार्गम् अनुसरतु इति अस्ति. मेच् करणीयम् अस्ति तदेव.
प्रकृतिं पश्यतु.
हा समीचीनं.
पश्यतु
हा इदानीं पश्यतु पदस्य तत् किमस्ति? उत्तमपुरुष वा मध्यमपुरुष वा वचनं किं?
पश्यतु
प्रथमपुरुष एकवचनम्. इदानीं तस्य मध्यमपुरुष बहुवचनरूपं किमस्ति? पश्यत. समीचीनं महोदय. अस्तु हा अग्रे वंशीसुधा भगिनि.
आं महोदय. संस्कृतं जयतु.
अस्तु इदानीं जयतु किमस्ति?
जयतु प्रथमपुरुषे एकवचनरूपमस्ति.
एकवचनरूपमस्ति. अस्तु मध्यमपुरुष द्विवचनरूपं किमस्ति?
जयतं.
जयतं समीचीनं भगिनि. अस्तु अग्रे रघुपति महोदय.
आम् महोदय, संस्कृतं ध्येयं ध्येयम् एकं अनुसरतु पश्यतु जयतु स्मरतु ध्येयं स्मरतु
ध्येयं स्मरतु. अस्तु, इदानीम् उत्तमपुरुषे एकवचनं.
उत्तमपुरुषे एकवचनं स्मरतु स्मराणि स्मराणि
स्मराणि
ध्येयं स्मराणि. अस्तु,
स्मराणि नकारः णत्वं भवति. सत्यम्. अस्तु, समीचीनं महोदय. अस्तु, शोभा भगिनी.
हा, भारतं भारतं लसतु.
इदानीं बहुवचने मध्यम प्रथमपुरुष बहुवचनरूपं
प्रथमपुरुष बहुवचने लसन्तु
लसन्तु. समीचीनं भगिनि. अस्तु, इदानीम् अग्रे गच्छामः. भानुचेतनी
महोदय, लसतु अर्थं किं महोदय?
कोऽपि वक्तुम् इच्छति वा? अस्तु, भानुचेतनी महोदय अग्रे पठति वा? हा
महोदय, एकवारं ददातु ददातु दत्तां.
हा, तत्र सत्यं महोदय. ददातु दत्तां ददतु
ददतु
देहि दत्तं दत्त दत्त ददानि ददाव ददाम.
मध्यमपुरुषे उत्तमपुरुषे साधारणरूपम् अस्ति महोदय, किन्तु मध्यमपुरुषे देहि इति अस्ति. देहि दत्तं दत्त
देहि.
हा, अतः एव पाहि त्राहि देहि तत्सर्वं लोट्लकाररूपम् अस्ति.
धन्यवादः महोदय.
हा, अस्तु, तत्र सङ्गीते वयं शृण्मः खलु, पाहि माम् अथवा श्लोके वयं शृण्मः देहि पाहि मां त्राहि मां, तत्सर्वं लोट्लकाररूपम् अस्ति. तत्र वयं देवं प्रथमपुरुषरूपेण न चिन्तयामः, भवान् ददातु इति न चिन्तयामः, त्वं देहि इति चिन्तयामः तत्र मध्यमपुरुषः. अस्तु
महोदय, अत्र धातु किम् अस्ति महोदय? दद इति
अस्तु. अग्रे भानुचेतनी महोदय अग्रे पठति वा? तृतीयाभ्यासः.
कोष्ठके विद्यमानेन उचितक्रियापदेन रिक्तस्थानानि पूरयत. भवान् भवति परिश्रमम् भवान् परिश्रमं करोतु.
हा, अस्तु, इदानीं करोतु इति तस्य तस्य
रूपे एकवचनं.
सत्यं महोदय, सत्यं. तदपि किञ्चित् विशेषणमस्ति महोदय, तत्र रूपमस्ति करोतु कुरुतां कुर्वन्तु, कुरु कुरुतं कुरुत, करवाणि करवाव करं वाम इति. तत्र अस्तु, समीचीनं महोदय. अग्रे कः? शोभा भगिनी अग्रे.
भवती जागरूकः प्रदर्शयतु.
हा, तत्र प्रायशः जागरूक भवती इति अस्ति चेत् जागरूका इति, तत्र
भवान् जागरूकः भवतु.
हा, समीचीनं. हा, समीचीनं भगिनि. हा हा, इदानीम् अवगतवती. हा, जागरूकः भवतु इति अस्ति, समीचीनं. हा, जागरूकः इत्युक्ते
अलर्ट्.
हा, अलर्ट् केर्फुल्. हा, किन्तु तत्र जागरूकः भवान् जागरूकः भवतु इति, तत्र भवतु इति क्रियापदमस्ति, भवान् इति कर्तृपदमस्ति, जागरूकः तदपि कर्तृपदं वा कर्मपदं वा किम्?
जागरूकः
विभक्ति का तत्र?
भवतु अस्ति चेत्
भवतु
क्रियापदं
क्रियापदमस्ति, भवतु क्रियापदमस्ति, भवान् इति कर्तृपदमस्ति,
हा महोदय, किन्तु यदा भवति अथवा भवतु आगच्छति तत्र विसर्गः एव
सत्यं सत्यं न न अन्यरीत्या वदामः तत्र भवतु इति तत्र तद् अकर्मकधातुः अस्ति तत्र कर्मपदं नास्ति
नास्ति
अतः जागरूकः अपि तदपि कर्तृपदम् अस्ति किन्तु कर्तृपदद्वयमस्ति चेत् तत्र
यथा यथा सः तृषितः भवति तत्र तृषितं न
तृषितः इति
तृषितः एव
तत्र किमर्थं चेत् तत् विशेषणम् अस्ति तावदेव तत्र जागरूकः अपि विशेषणमस्ति भवान् शब्दस्य अतः एव भवति इति अस्ति चेत् जागरूका इति
जागरूका
अतः परिवर्तनं भवति समीचीनं भगिनि अस्तु अग्रे मधुसूदन महोदय वदति वा अग्रिमं
महोदय प्रवचनं भवान् प्रवचनं करोतु
इति परिश्रमं करोतु इति कृतं पूर्वम् अतः करोतु इति इदानीं न आगच्छति भवतु अपि वयं कृतवन्तः अतः अन्यत् कोऽपि प्रवचनं करोति अन्यः किं करोति प्रवचनं
शृणोतु
शृणोतु भवान् प्रवचनं शृणोतु तत्र शृणोतु अपि करोतु इति तादृशरूपमेव अस्ति किञ्चित् विशेषरूपम् अस्ति शृणोतु शृणुतां शृण्वन्तु शृणु शृणुतं शृणुत शृणुवानि शृणुवाम शृणुवाम इति अस्ति तत्र मध्यमपुरुषे श्रुधि अपि शृणु इति रूपद्वयमस्ति एतत् अहं किं करोमि तत् एतत् अग्रिमवर्गे एतत् कोष्टकम् अहं लिङ्क् द्वारा प्रेषयामि अतः यदि लेखनस्य आवश्यकता नास्ति अहं लिङ्क् प्रेषयामि अस्तु अस्तु किन्तु एतद् विशेषरूपम् अस्ति शृणोतु अपि अस्तु समीचीनं महोदय अग्रे नरेश महोदय
भवान् विजयं प्राप्नोतु
विजयं प्राप्नोतु समीचीनम् अस्तु अग्रे वंशीसुधा भगिनि
शक्तिं सम्पादयतु महोदय
समीचीनं भवती शक्तिं
सम्पादयतु
सम्पादयतु समीचीनं भगिनि गीताञ्जलि भगिनि अग्रे
भवान् दुर्गुणं त्यजतु
समीचीनं भगिनि अस्तु समीचीनं उषा भगिनि
भवान् लक्ष्यं साधयतु
समीचीनं शोभा भगिनि
भवती पराक्रमं प्रदर्शयतु
समीचीनं भानुचितनी महोदय
भवती चित्रं निर्मातु
समीचीनं महोदय अस्तु अग्रे गीताञ्जलि भगिनि
नूतनं सृजतु
भवान् अथवा भवती नूतनं सृजतु समीचीनम् अस्तु इदानीं एतत् जानीमः अस्तु इदानीं अग्रिम अभ्यासः कर्तुं शक्नुमः इति मन्ये अस्तु तत्र वंशीसुधा भगिनी अग्रे पठति वा तत्र अग्रिमपुटे चतुर्थ अभ्यासः
चतुर्थाभ्यासः महोदय यतोदाहरणं रिक्तस्थानानि पूरयत उदाहरणं भवान् सः भवन्तौ तौ भवन्तः ते क्रीडति क्रीडतु क्रीडतः क्रीडतां क्रीडन्ति क्रीडन्तु
इदानीं नमति इति
नमति नमतु नमतः नमतां नमन्ति नमन्तु
नमन्तु समीचीनं भगिनि अस्तु अग्रे भानुचेतनी महोदय रक्षति इति
रक्षति लोट् लकाररूपं
रूपं
रक्षतु रक्षतां रक्षन्तु
हा समीचीनम् अस्तु अग्रे मधुसूदन महोदय भ्रमति इति हा समीचीनं महोदय अस्तु इदानीं नरेश महोदय त्यजसि
त्यजसि त्यज त्यजतं त्यजत
हा समीचीनं शोभा भगिनी स्पृशसि
स्पृशसि स्पृशतं
न लोट् लकारः किम् अस्ति
ओ स्पृशतु
न किन्तु इदानीं मध्यम पुरुषः अस्ति भगिनि स्पृशसि इति मध्यम पुरुषः अस्ति स्पृशति इति तत्र
सारी महोदय स्पृशसि स्पृशतः
न तत्र पठतु पठतां पठन्तु किन्तु मध्यमपुरुषः किम् अस्ति भगिनि पठ इति अस्ति
स्पृश
हा समीचीनं
स्पृश स्पृशतं स्पृशत
हा तावदेव भगिनि अस्तु धन्यवादः उषा भगिनि
कूजसि कूज कूजतं कूजत
हा समीचीनं हा नरेश महोदय
हसामि पचामि पचानि पचाव पचाम
मधुसूदन महोदय तरामि इति हा तत्र प्रायश तराणि इति नत्वं णकारः भवति इति मन्ये किन्तु हा इदानीं अस्तु अग्रे गीताञ्जलि भगिनी
भवामि भवानि भवाव भवाम
हा इति अस्ति अस्तु हा इदानीं इदानीं किम् अस्ति तत्र वयं प्रायशः परस्मैपदीधातूनां लोट् लकारस्य रूपाणि तेषाम् अभ्यासं कृतवन्तः इति मन्ये अग्रे यद् आयति तदस्ति आत्मनेपदीधातूनां किन्तु अत्र किं पञ्चम हा तत् प्रायशः आत्मनेपदी एव अस्ति हा एतदपि परस्मैपदी एव अस्ति अस्तु एतदपि कुर्मः अस्तु एकनिमिषः तत्र अहं किञ्चित् एतत् अस्तु तत्र अन्यत् अभ्यासः अपि अस्ति तदपि कुर्मः तदनन्तरम् अत्र आगच्छामः तत्र पेज् 56 पश्यामः पेज् 56 इदानीं पेज् 56 तत्र द्वादश अभ्यासः तत्र कः पठति बालचेतनी महोदय पठति वा
आं महोदय पाण्डवानां शिबिरं युद्धसन्नाहः प्रवर्तते सेनापतिः दृष्टद्युम्नः सूचनाः ददाति आवरणे स्थितस्य क्रियापदस्य उचितं रूपम् उपयुज्य सः कं किम् आदिशति इति लिखत
किञ्चित् वदतु महोदय किम् अस्ति कार्यं किम् इति वदतु इदानीं सन्दर्भः कः
पाण्डवानां शिबिरं महोदय
सत्यं सत्यं वदतु महोदय.
पाण्डवानां शिबिरम् अस्ति तत्र. तत्र किं करोति चेत् सर्वे युद्धं कर्तुं सन्नद्धं
सज्जता सज्जता कुर्वन् सन्ति
सज्जता सज्जता. पाण्डवशिबिरस्य सेनापतिः अस्ति दृष्टद्युम्नः. सः किमपि सूचनाः ददाति.
तत्र सूचनाः इति विभक्ति का महोदय?
प्रथमविभक्ति बहुवचनम्.
बहुवचनं समीचीनम् अस्ति. अन्य कोऽपि किमपि वक्तुम् इच्छति वा तत्र महोदय? तत्र ददाति इति क्रियापदमस्ति खलु तस्मिन् वाक्ये? अपि कर्तृपदं कर्तृपदं किम् अस्ति तत्र? ददाति क्रियापदम् अस्ति, कर्तृपदं कः कार्यं करोति तत्र?
दृष्टद्युम्नः.
सः एव कर्ता अस्ति. कर्तृपदं दृष्टद्युम्नः. तत्र सेनापतिः विशेषणम् अस्ति. समीचीनं. किन्तु सः किं ददाति इति प्रश्नः भवति खलु?
सूचनाः ददाति.
किं ददाति इत्युक्ते किम् इति कर्मपदं भवति खलु?
सूचनाः.
तत्र क्लेशः अस्ति स्त्रीलिङ्गे आकारान्तस्त्रीलिङ्गपदं बहुवचने अस्ति खलु, अतः तद् रूपसमानम् अस्ति प्रथमविभक्तौ द्वितीयविभक्तौ. तावदेव. अस्तु अस्तु
धन्यवादः.
सूचना सत्यं महोदय. यदि यदि न जानीमः इदानीं जानीमः. किमर्थं चेत् यदि सूचनः आसीत् बहुवचने रूपं किं भवति? द्वितीया विभक्ति बहुवचनरूपं सूचनः आसीत् चेत् द्वितीयविभक्ति सूचनान् इति सूचनम् एकवचने, बहुवचने सूचनां सूचनान्. किन्तु सूचनाः इति अस्ति, अतः स्त्रीलिङ्गपदम् अस्ति. अस्तु अग्रे.
क्रियापदस्य उचितरूपम् उपयुज्य सः कं किम् आदिशति इति लिखत. आदेशः अस्ति महोदय अत्र, अतः लोट् लकाररूपम् उपयुज्य
करणीयम् अस्ति. समीचीनं महोदय, समीचीनं. तत्र
कार्यं करणीयमस्ति.
समीचीनं. तत्र अस्तु, धन्यवादः महोदय. तत्र नरेश् महोदय, तत्र किमर्थं कं किम् इति अस्ति?
कं जनानां.
एकः अस्ति जन, अन्यत् अस्ति
अन्य जनाः सन्ति.
किन्तु कं किम् इति अस्ति, कम् अपि किं. तत्र किं किम् इति आदिशति इति नास्ति. किं किम् किं किम् आदिशति इत्युक्ते किं किम् आदेशः, किन्तु कं किम् इति अस्ति.
कम् इति विषयं सूचयति.
न कं कं पुरुष पुरुषाणि
पुरुषं सूचयति. कम् इति पुरुषं सूचयति, किम् इति किं कार्यम् इति सूचयति. कः किं कार्यं करणीयम् इति तस्य आदेशः भवति. अतः कं एषः एतत् करोतु, अतः कं किम् आदिशति इति भवति. अस्तु. अतः तत्र द्विवारम् इति न, कम् अपि किं भिन्नम् अस्ति तत्र. अस्तु. अस्तु अग्रे. गीताञ्जलि भगिनी अग्रे वदतु भगिनि तत्र उदाहरणं.
सूर्योदयः जातः, यूयं सर्वे उत्तिष्ठत.
उत्तिष्ठत इति मध्यमपुरुष
एक बहुवचन
बहुवचनरूपम् अस्ति. अस्तु. अग्रे.
युद्धार्थं सज्जा भवन्तु.
सज्जाः भवन्तु सुखे
सुकेश
सुकेश. अस्तु अग्रे.
त्वं द्वारे तिष्ठ.
तिष्ठ. समीचीनं भगिनि. अस्तु अग्रे शोभा भगिनि.
यूयं खड्गान् तीक्ष्णान् कुरुथ. यूयम् अस्ति. यूयं खड्गान् तीक्ष्णान् कुरुत.
कुरुत. समीचीनं भगिनि. हा इदानीं
भीम. अद्य भवान् गजसैन्यं नयति. भीम अद्य भवान् गजसैन्यं नयतु.
नयतु. समीचीनं भगिनि. अस्तु अग्रे उषा भगिनि.
यूयं कवचानि यूयं कवचानि धरत. मध्यमपुरुष धरत. धरत
धरत इति अस्ति. हा अग्रे
नकुल. नकुल अद्य त्वं व्यूहं रचयसि. रचय.
हा अद्य त्वं व्यूहं रचय. समीचीनं भगिनि. समीचीनं. अग्रे मधुसूदन महोदय.
महोदय सर्वे व्यूहे सज्जाः तिष्ठन्ति. सर्वे व्यूहे सज्जाः तिष्ठन्तु.
तिष्ठन्तु. समीचीनं. हा अग्रे
सेनापतिः अग्रे तिष्ठति. सेनापतिः अग्रे तिष्ठ.
सेनापतिः अग्रे.
सेनापतिः अग्रे तिष्ठ.
किमर्थं सेनापतिः अग्रे तिष्ठ?
सेनापति सेना
तत्र तिष्ठति इति तस्य पुरुषवचनम् इति वदतु. तिष्ठति इति पदस्य
तिष्ठति
न पुरुष प्रथमपुरुष वा मध्यमपुरुष वा किं रूपम् अस्ति? तिष्ठति इति. तिष्ठति इति क्रियापदस्य तद् उत्तमपुरुष वा मध्यमपुरुष वा प्रथमपुरुष वचनं?
एकवचनं.
हा अतः तस्य एव लोट्लकारः आवश्यकम्. हा समीचीनं. सेनापतिः अग्रे. हा सेनापतिः
अग्रे तिष्ठतु.
तिष्ठतु. समीचीनं महोदय. हा यूयं
तस्य रक्षणं.
तस्य रक्षणं अग्रे.
तस्य रक्षणं यूयं तस्य रक्षणं
कुरुत. तत्र कुरुत लोट्लकारे कुरुत तावदेव. तत्र किञ्चिदेव परिवर्तनम् अस्ति. अस्तु अस्तु महोदय. अग्रे हा भानुचेतनि महोदय. हा
यूयम् अश्वदलं तत्र गच्छतु.
हा अश्वदलं तत्र गच्छतु.
एते सैनिकाः गजम् आरोहन्तु.
तदपि करोतु. करोतु महोदय.
भवन्तः कुन्तान् गृह्णन्तु.
गृह्णन्तु. समीचीनं महोदय. अस्तु अग्रे नरेश महोदय.
कुन्तान् कुन्तान्
कुन्तान् इति अश्वदनं कुन्तान् अहं चिन्तयामि गजः वा न कुन्तान् न स्मरामि महोदय. कोऽपि वदति वा कुन्तान् इत्युक्ते? स्पियर्. अस्तु महोदय. स्पियर्. अस्तु हा धन्यवादः महोदय. मधुसूदन महोदय. हा नरेश महोदय अग्रे.
शत्रून् मर्दयन्ति. शत्रून् मर्दयन्तु.
हा
आक्रमणं
कुर्वन्तु. हा समीचीनं महोदय. वदतु महोदय. वदतु. हा
सर्वे दलपतिम् अनुसरन्ति. सर्वे दलपतिम् अनुसरन्तु. आज्ञां पालयन्तु च.
हा समीचीनं महोदय. अग्रे शोभा भगिनि.
शत्रुपक्षे अस्त्राणि क्षिपन्तु. सर्वे अरयः सर्वे अरयः पतन्तु.
तत्र अरयः इति कोऽपि जानाति वा? अरि शत्रु अरि अर अरि इति अस्ति, हरि इति नास्ति, अरि इति अस्ति. हा, हरि आवश्यकम्, अरि न आवश्यकम्. अस्तु. हा अस्तु, अग्रे उषा भगिनि.
यूयं यूयं शत्रून् यमलोकं प्रापयत.
प्रापयत. वयं
वयं सायंकालात् पूर्वं विजयिनः विजयिनः भवामः भवामः
भवाम
भवाम धर्म धर्मरक्षणं कुर्मः कुर्मः धर्मरक्षणं कुर्मः
करवाणि करवाव करवाम. अतः धर्मरक्षणं करवाम करवाम. समीचीनं भगिनि, समीचीनम्. अस्तु. हा, एतद् हा तत्र तत्र परस्मैपदी धातूनाम् एव अभ्यासः अस्ति. इदानीम् अन्यत् प्रायशः एतत् यत् गीतायां श्लोकः अस्ति तदपि किञ्चित् तदपि किञ्चित् द्रष्टुं शक्नुमः. अस्तु, तत्र एतत् कुर्मश्चेत् अग्रिमवर्गे आत्मनिपदी धातूनां लोट्लकारस्य अभ्यासं कर्तुं शक्नुमः. अस्तु, तत्र पश्यामः प्रायशः सर्वत्र परस्मैपदी धातुः नास्ति इति मन्ये, किन्तु नरेश् महोदय अग्रे पठति वा तत्र?
आम् महोदय.
त्रयोदश अभ्यासः.
गीतायां कृष्णेन आदर्शरूपेण उक्तानि कानिचित् वाक्यानि अत्र सङ्गृहीतानि सन्ति. एतानि उच्चैः पठत. एतेषु लोट् लकाररूपाणि अधोरेखया अङ्कयत् अङ्कयत.
किं करणीयं महोदय अत्र, कार्यं किम्?
लोट् लकाररूपाणि अधोरेखा करवाणि.
हा, करणीयम् अस्ति. अधोरेखा इत्युक्ते
अण्डर्लैन्
अण्डर्लैन्. हा, लैन् अस्ति, रेखा, अधोरेखा, अण्डर्लैन् इति. हा, समीचीनं महोदय. हा, तत्र प्रायशः केवलं परस्मैपदी धातूनाम् अभ्यासम् एव कृतवन्तः, किन्तु अन्यदपि जानीमश्चेत् तत्र कर्तुं शक्नुमः. अस्तु, नरेश् महोदय, तत्र प्रथमवाक्ये अस्ति वा लोट्लकारः?
कुरु कर्माणि, कुरु अस्ति, कुरु लोट्लकारः अस्ति.
कुरु, कुरु इति अस्ति. समीचीनं. हा, कुरु इति मध्यमपुरुषः अस्ति. अस्तु, द्वितीयवाक्ये अस्ति वा लोट्लकारः? शोभा भगिनी.
निमित्तमात्रं भव सव्यसाचिनि. निमित्तमात्रं भव भवा लोट्लकारे अस्ति महोदय.
हा, सत्यं भगिनि. हा, पट इति यादृशम् अस्ति तादृशं भव.
मध्यमपुरुष एकवचन.
समीचीनं भगिनि. अस्तु. हा, समीचीनं, धन्यवादः. अस्तु, अग्रे उषा भगिनि, तृतीयवाक्ये.
निस्त्रैगुण्यो भवार्जुन, निस्त्रैगुण्यो भव अर्जुन.
हा, तत्रापि भव इति अस्ति. समीचीनं. हा, अग्रिम गीताञ्जलि भगिनि, अग्रिमवाक्यं.
बीजं मां सर्वभूतानां विद्धि. विद्धि महोदय लोट्लकार.
हा, विद्धि लोट्लकार एव अस्ति, किन्तु एतद् न जानीमः, तद् रूपं न दृष्टवन्तः. किन्तु तद् मध्यमपुरुष एकवचन वचने तद् आगच्छति, देहि अथवा हि अथवा दीकारः आगच्छति. सत्यं भगिनि. हा, सत्यम्. अस्तु, तदपि लोट् लकार एव अस्ति. अस्तु, अग्रे भानुचेतनी महोदय.
मध्याजि मां नमस्कुरु.
लोट् लकार
नमस्कुरु.
हा नमस्कुरु लोट् लकार अस्ति. समीचीनं.
कुरु कुरु इति
समीचीनं. हा समीचीनं महोदय. हा पञ्चमवाक्ये अपि तदेव अस्ति, कुरु इति अस्ति. अस्तु, अग्रे मधुसूदन महोदय. शरणम् अन्विच्छ. अन्विच्छ हा अन्विच्छ. समीचीनं महोदय. अन्विच्छ इति हा इदानीं भवान् सम्यक्तया पश्यसि. हा समीचीनं महोदय. हा अस्तु, अग्रिम अग्रिमवाक्ये गीताञ्जलि भगिनि अग्रिमवाक्ये. न न तस्मात् उत्तिष्ठ
उत्तिष्ठ कौन्तेय.
हा तत्र तस्मात् प्लस् उत्तिष्ठ
उत्तिष्ठकाररूपं मध्यमपुरुष एकवचनम्
उत्तिष्ठतु इति प्रथमपुरुषरूपं. समीचीनं भगिनि. अस्तु, अग्रे शोभा भगिनि अग्रिमवाक्ये.
शृणु मे परमं वचः. अत्र शृणु लोट्लकारे अस्ति.
लोट्लकारे अस्ति. हा समीचीनं भगिनि. अस्तु, अग्रे उषा भगिनि अग्रिमवाक्ये.
तमेव शरणं गच्छ. गच्छ अस्ति महोदय.
गच्छ इति अस्ति. अस्तु हा अस्तु, इदानीं मिलित्वा कुर्मः, किञ्चित् एव समयः अस्ति. एकादशवाक्ये किम् अस्ति लोट्लकर्क्रियापदं?
कुरु.
कुरु इति अस्ति. हा अग्रिमे तत्र समाचारः इति नास्ति, समाचारः इति अस्ति. आचर आचर इति लोट्लकाररूपम् अस्ति. अस्तु, अग्रिमवाक्ये त्रयोदशे वाक्ये भव इति तदस्ति. अग्रिमवाक्ये शादी. शादी इति मध्यमपुरुषे एकवचनरूपम् अस्ति. हा
महोदय, शादी
द्रष्टव्यम् अस्ति भगिनि. अहं केवलं धीकार धी अन्ते अस्ति इति दृष्ट्वा अहम् उक्तवान्. हा द्रष्टव्यम् अस्ति किम् इति. हा अग्रे हा लभस्व अपि लभस्व वयं न दृष्टवन्तः, किन्तु तद् आत्मनेपदि मध्यमपुरुष एकवचनरूपम् अस्ति. समीचीनं भगिनि. हा लभस्व इति. हा तदनन्तरं युध्यस्व. कुरुष्व. हा कुरु इति दृष्टवन्तः, इदानीं कुरुष्व तद् आत्मनेपदी रूपम् अस्ति. हा तदनन्तरं भजस्व. प्राप्य इति लिबन्तम् अस्ति. भजस्व केवलं भजस्व. तदनन्तरं भुङ्क्ष्व. भुङ्क्ष्व अपि लोट्लकाररूपम् इति मन्ये. आदत्स्व. हा आदत्स्व तदपि लोट्लकाररूपम् अस्ति, आत्मनेपथ्य धातु. तदनन्तरं भव. भव निवेशय. निवेशय तत्तु मध्यमपुरुष एकवचनं. एकवचनं अस्तु. समीचीनम् अस्ति
शब्दानि मध्यमपुरुष एकवचन सन्ति.
तत्र कृष्ण अर्जुनं वदति खलु, अर्जुनस्य अर्जुनेन सह सम्भाषणं करोति खलु.
अस्तु महोदय.
अतः प्रायशः मध्यमपुरुष एव बहुत्र दृश्यते इति मन्ये खलु. गीतायाम् एतदेव सम्भाषणम् भवति खलु.
धन्यवादः.
हा अस्तु, इदानीं वयं लोट् लकारस्य रूपाणि दृष्टवन्तः अद्य. अग्रिमवर्गे तदेव किञ्चित् एकवारं पुनस्मरणं कृत्वा आत्मनेपदीधातूनां रूपाणि पश्यामः. अपि एतत् लोट् लकारः प्रसिद्धश्लोके कुत्र कुत्र आगच्छति इति कानिचन उदाहरणानि अपि पश्यामः अग्रिमवर्गे. अस्तु, प्रश्नः अस्ति वा? अस्तु अस्तु, विरमाम. सर्वेभ्यो नमः, अग्रिमवर्गे मिलामः.
नमस्कारः. धन्यवादः.
धन्यवादः. नमस्कारः.
नमस्कारः.